आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधि झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य देहरादूनतः दिल्ली देहरादून आर्थिक वीथेः उद्घाटनम् अकरोत्। प्रधानमन्त्री नरेन्द्र मोदी प्रतिपादितवान् यत् नीति निर्माण प्रक्रियायां महिलानां सक्रिय सहभागितया 47-2000 वर्षं यावत् विकसित भारतस्य निर्माण लक्ष्यं इतोपि सुदृढी भविष्यति। बिहार राज्यस्य नूतन मुख्यमंत्री सम्राट चौधरी भविष्यति। राष्ट्रमद्य डॉक्टर बी आर अम्बेडकरं तस्य जन्म जयन्त्यवसरे स्मरति। अशेषे हि देशे अद्य वैसाखी, तमिल नववर्षं, पोहेला वैशाखः तथा च ओडिया नववर्षं पारंपरिक उत्साहेन आचरितम्। अपि च क्रीडावार्तासु, इंडियन प्रीमियर लीग स्पर्धायां अद्य सायं चेन्नई सुपर किंग्स दलं एमए चिदंबरम क्रीडांगणे कोलकाता नाइट राइडर्स दलेन सह स्पर्धिशिष्ट। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य देहरादूनतः दिल्ली देहरादून आर्थिक वीथेः उद्घाटनम् अकरोत्। इयम् आर्थिक वीथिः प्रमुख पर्यटन केन्द्राणाम् आर्थिक केन्द्राणां च मध्ये सम्पर्कं सुदृढीकरिष्यति, येन क्षेत्रे व्यापारस्य विकासस्य च नूतनाः अवसराः उत्पद्येरन्। देहली, उत्तरप्रदेश, उत्तराखण्ड राज्यैः गम्यमाना इयं वीथिका देहली देहरादून नगरयोः मध्ये यात्रा समयं 6 होरातः न्यूनीकृत्य 2.5 होरामितं करिष्यति। इयं परियोजना वन्यजीवानां सुरक्षाम् अवधार्य निर्मितास्ति। अत्र तावत् 12 किलोमीटर परिमिता एलिवेटेड वन्यजीव वीथिः निर्मिता, या च एशिया महाद्वीपस्य दीर्घतम वीथिषु अन्यतमास्ति। कार्यक्रमात् प्राक् प्रधानमन्त्रिणा सहारनपुर देहरादून नगरयोः पथ प्रदर्शने अपि भागं निर्व्यूढम्। प्रधानमन्त्री नरेन्द्र मोदी प्रतिपादितवान् यत् यदा नीति निर्माण प्रक्रियायां महिलानां सक्रिय सहभागिता भविष्यति तदा निश्चप्रचमेव 47-2000 वर्षं यावत् विकसित भारतस्य निर्माण लक्ष्यं इतोपि सुदृढी भविष्यति। भारतस्य नारी शक्त्यै लिखिते एकस्मिन् पत्रे श्रीमोदी प्रावोचत् यत् अप्रैल मासस्य 16 दिनांके संसत् तावत् नारी शक्ति वन्दनाधिनियमस्य प्रमुखाणां संवैधानिक संशोधनानां विषये चर्चां करिष्यति। तेन आशा प्रकटिता यत् अयं विधेयकः शीघ्रमेव पारिष्यते। प्रधानमन्त्रिणा विशेषतः उल्लेखितं यत् स्वयं सहायता समूहाः तथा च लखपति स्वसारः आत्मनिर्भरतायाः सशक्तम् उदाहरणं प्रस्तुवन्ति। सः अग्रे अवोचत् यत् विज्ञान नवाचार क्षेत्रेष्वपि महिलानां योगदानम् अविरतं वर्धमानं वर्तते। नवदिल्ल्याम् आयोजिते सम्मेलने तेन स्पष्टीकृतं यत् 31-2000 लोकसभानिर्वाचनं महिलारक्षणं समेत्य भविष्यति, तर्हि देशस्य लोकतन्त्रम् इतोपि दृढः भविष्यति। बिहारे भाजपेति दलस्य विधायकदलस्य सभायां सम्राट चौधरी सर्वसम्मत्या निर्वाचितः, येन तस्य मुख्यमन्त्रीपदप्राप्तेः मार्गः प्रशस्तः जातः। पटनानगरे आयोजितायां सभायां केन्द्रीय पर्यवेक्षकः शिवराज सिंह चौहानः अस्याः घोषणायाः पुष्टिमकरोत्। शीघ्रमेव विधानमण्डलस्य सेंट्रल हॉल इत्यत्र राष्ट्रिय जनतांत्रिक गठबंधनस्य विधायकानां संयुक्त सभायां तस्य नाम्नी अंतिमा सहमतिः भविष्यति। तदनन्तरं सः लोकभवने प्रशासन निर्माणाय स्वकीयं कार्यम् उपस्थापयिष्यति। एषः विकासः नीतीशकुमारस्य त्यागपत्रानन्तरं जातः, यः सम्प्रति राज्यसभासदस्यः अभवत्। तारापुरक्षेत्रस्य विधायकः सम्राट चौधरी दलं प्रति कार्तज्ञभावं ज्ञापितवान्। नूतनमुख्यमन्त्रिणः शपथग्रहणसमारोहः श्वो भविष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतस्य संविधानशिल्पिनः डॉक्टर बी आर अम्बेडकरस्य 36th जयन्ती महोत्सवे अद्य राष्ट्रं तस्मै श्रद्धांजलिम् अर्पयति। अवसरेस्मिन् देशे सर्वत्र अनेके कार्यक्रमाः आयोजिताः भवन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः गुजरात राज्यस्य गांधीनगरस्थे लोकभवने बाबा साहेब डॉक्टर बी आर अम्बेडकरस्य चित्रे पुष्पार्चनं कृत्वा श्रद्धांजलिम् अर्पितवती। सामाजिक समरसता महोत्सवे भाषमाणा सा राष्ट्रिय सर्वांगीण विकासाय जाति धर्म भेदात् उपरि उत्थाय राष्ट्रिय एकतायाः आह्वानं कृतवती। राष्ट्रपति महोदया बलं दत्तवती यत् समरस भारतस्य मार्गः समरस ग्रामेभ्यः एव आरभते। नवदिल्ल्यां उपराष्ट्रपति सीपी राधाकृष्णन्, प्रधानमंत्री नरेन्द्र मोदी, लोकसभाध्यक्षः ओम बिरला, राज्यसभायाः विपक्षस्य नेता मल्लिकार्जुन खड़गे, केन्द्रीय मंत्री अन्ये च संसदः सदस्याः अपि संसद भवने प्रेरणास्थले डॉक्टर बी आर अम्बेडकरं प्रति श्रद्धांजलिं समर्पितवन्तः। अद्य अशेषे हि देशे वैशाखी, तमिल नववर्षं, पोहेला वैशाखः तथा च ओडिया नववर्षं पारंपरिक उत्साहेन आचरितम्। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधा कृष्णन् अथ च प्रधानमंत्री नरेन्द्र मोदी वैशाखी, विशु, विशुभ, बोहाग, बिहु, पोहेली वैशाख, मेषादि, वैशाखादि एवं पुथुंडु इत्येतेषां मंगलमयावसरेषु देश विदेशस्थान सर्वान् नागरिकान् प्रति शुभाशयान् विस्तारितवन्तः। प्रधानमंत्री नरेन्द्र मोदी अद्य उपराष्ट्रपति भवने उपराष्ट्रपतिना सीपी राधा कृष्णन् वर्येण सह अमिलत्। तत्र तेन तमिल नववर्षस्य पुथुंडु पर्वणः अवसरे उपराष्ट्रपतये हार्दिकाः शुभाशयाः विनिवेदिताः। अद्य तमिलनाडु राज्यस्य चेन्नई नगरे केन्द्रमंत्री जेपी नड्डा भारतीय जनता पार्टी इति दलस्य निर्वाचन संकल्प पत्रं विमोचितवान्। तेन आश्वासितं यत् यदि राष्ट्रीय जनतांत्रिक गठबंधनं सत्तायाम् आयाति तर्हि निश्चप्रचं प्रत्येकं परिवाराय 10,000 रूप्यकाणि, महिलाभ्यः प्रतिमासं 2,000 रूप्यकाणि, अपि च प्रतिवर्षं 3 निःशुल्कानि एलपीजी वायुकोशानि प्रदास्यन्ते। संकल्पपत्रे भगवतः मुरुगनस्य उत्सवः थाई पुसुम राजकीय उत्सवरूपेण उद्घोषयितुं दीप्थून स्थले दीप प्रज्वलनस्य परंपरां पुनः स्थापयितुं च वचनं प्रदत्तम्। मादकद्रव्य निवारणं अपि च शाकानां कृते न्यूनतम समर्थन मूल्यस्य एमएसपी इत्यस्य वृद्धिः अपि भाजपेति दलस्य प्राधान्यं लक्ष्यमस्ति। अपि च महिला उद्यमिनां एमएसएमई विकासाय 50,00,000 रूप्यकाणां सहायं दास्यन्ते, येन ताः निर्मातृत्वेन विकासिताः भूयासुः। अपरपक्षे पश्चिम बंगाल राज्ये तथा तमिलनाडु राज्ये विधानसभा निर्वाचनाय प्रचाराभियानं सम्प्रति चरमोत्कर्षे वर्तते। अपि च क्रीडा वार्तासु, इंडियन प्रीमियर लीग स्पर्धायाम् अद्य सायं चेन्नई सुपर किंग्स दलम् एमए चितंबरम क्रीडांगणे कोलकाता नाइट राइडर्स दलेन सह स्पर्धिशिष्ट। क्रीडेयं भारतीय समयानुगुणं सायं 7:30 आरप्स्यते। अपरत्र ह्यः रात्रौ हैदराबाद नगरस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे सनराइजर्स हैदराबाद दलेन राजस्थान रॉयल्स दलं 57 धावनांकानां अन्तरेण पराजितम् इति वार्ताः।